अहम् सर्वस्य प्रभवा मत्ता सर्वं प्रवर्तते इति मत्वा भजन्ते मां बोधा भाव समन्विता मच्चित्ता मद्गत प्राणा बोधयन्तं परस्परां कथयन्तश्च मां नित्यं तुष्यन्ति चरमन्ति च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तां येन मामुपयान्ति ते तेषामेवानुकम्पार्थम् अहमज्ञानजं तमा नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता परं ब्रह्मा परं धामा पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यं आदिदेवाम् अजं विभुम् आहुस्त्वां ऋषय सर्वे देवर्षि नारदस्तथा असितो देवलो व्यास स्वयं चैव ब्रवीषि मे यद्यद्विभूतिमत्सत्त्वम् श्रीमादुर्जितमेव वा तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् त्वनन्यया शक्या अहम् एवं विदोजन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परं तप मत्कर्म कृत् मत्परमा मद्भक्तसङ्गवर्जित निर्वेद सर्वभूतेषु यस मामेति पाण्डवा क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवाप्यते मयैव मन आदत्स्व मयि बुद्धिं निवेशया निवशेषसि मयैव अत ऊर्ध्वं न संशय अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यास yogena tato mami chaptum dhananjaya abhyase pya samarthosi mat karma paramo bhava madartham api karmani kurvan siddhim avapsasi.